ஏவம் ஜாயமானம் பர்வதஸ்யாஸ்யக்ஷம் விஸ்வேர்தேவேந்த்ரம் ஜீவராஜம் பரிபாணம் புருஷாணாம் பரிபாணம் கிரஹாமசி அஸ்வாநாமர்வதாம் பரிபாணாய தஸ்யே உதாசே பரிபாணம் யாதுஜம் பரமாஞ்சனா உதாமுதஸ்ய த்வம் வேத்தாதோ அசி ஜீவபோஜனமதோ ஹரிதபேடஜம் யஸ்யாஞ்சனப்ரதர்பஸ்யங்கமங்கம் பருஷ்பருஹ ததோ யக்ஷ்மம் விவாதத உக்ரோ மத்யமசீரீவ நைனம் ப்ராப்னோதி ஹவதோனகிருத்யானாபிசோஜனம் நைனம் விஷ்கந்தமஸ்து தேனஸ்வாலிபர்த்யாஞ்சன அசன்மந்தாத்துஷ்வப்ன்யாத்துஷ்கமாச்சமாராஜுதா துருஹார்த்தஸ்யக்ஷுரோஹோராத்தஸ்மான்னப்பாய்யாஞ்சனா இதம் விதுவாராஞ்சன சத்யம் வக்ஷ்யாமி நாதிருதம் சனே அஸ்வங்காமஹ மஹாத்மானம் தவ பூருஷா த்ரயோதாசாஞ்சனஸ்ய சக்மா வலாசாதை வரிஷ்டப்பர்வதானாந்திரிகம் நாம தேபிதா யதாஞ்சானந்திரைரகுதம் ஜாதம் ஹிமவதஸ்பரி யாதோஞ்ச சர்வாஞ்சம்பயத் சர்வாச்சராதுதான்யாஹ யதிவாசைத்ரைரகுதம் யதீராமுலமுச்சதே உபேதே பத்ரேணாம் நீதாப்யாம் நப்பாய்யாஞ்சனா வாத்தோந்தரிஷாத்விதோஜோதிஷஸ்பரி சரோஹிரண்யாசங்கிருஷ்ணாத்மம் யோகிரதோரோச்சனே சங்கேன ஹ்வாரக்ஷாம் சத்ரிணோ விஷாமஹே சங்கேனீ வாமதிம் சங்கே நோத சதாங்க சங்கோனோ விஷ்வபேதம் பிவிஜாத்தமுதிரஸ்ரயாஹிரோயோ மணி சமுதிராஜாதோ மயர்வத்தாஜாதோ தீவாகேத்தியாசுரே ீர்ஷ அனட்வாந்தாதாரப்ரதிஷஷ்டர்வீரனட்வான்விஸ்வம்பவநமாமீவேஷஅனட்வாயந்தஸ்தபசுர்ப்யோவிசிஷ்டே த்ரயாஞ்சக்ரோவிநிவீதேஅத்வநஃ இந்திரோஜாத்தோபனுஷ்யேஸ்வந்தர்கர்மஸ்தரதிசோஷோஜானஃ சுப்ரஜாஸ்ஸம்சவுதாரேணசரஜ்யோநாஸ்தீராதனுபோவிஜானம் அனட்வாந்தோஹேசுகதஸ்ய லோகஐனம் ஜாயதேவமானஃபுரஸ்தாத் பர்ஜன்யோதாராமருதவுதோஅஸ்தேஜ்ஞப்பயோதக்ஷிணாதோஅஸ்ய யேஷ்வரேயஜ்ஞபாதிர்மயஜ்ஞோநாஸ்யதாதேசேன ப்ராதிக்ரஹீதா இந்திரோரோவேணாக்னிர்வஹேன ப்ரஜாபாயஃ பரமேஷ்ஷீ விராட் விஸ்வானரே அக்ரமதவைஸ்வானரே அக்ரமதாரணவ்யக்ரமதா ஸோதர்மரே தோதாரயதா மத்யமேததரணபோயத்ரைஷமஹ ஆஹீதா ஏதாவதஸ்ய ப்ராதீர்ணம் யாவான் ப்ரத்யங்கமாஹீதா யோ வேதான் ரதோதோஹான் சப்தானோபதஸ்வதஃ. प्रजाम् च लोकम् चाप्नोति यथा सप्त ऋषयः विदुः पद्भिस्तेजिन वक्रामन्दिरान् जङ्घाभिरुत्थितम् समेनाद्वान् गीरालम् गीराशष्टाभिगच्छतः द्वादशालेतारेवत्याः तत्त्वमब्रह्मणो वेदतद्वा नडुः व्रतम् दुहे सायम् दुहे प्रातर्दुहे मध्यम् दीनम् परि दोहायतान् विद्मानो रस्वः रोहण्यसि रोहण्यस्तश्चिन्द्रस्य रोहणी रोहये रमरुन्धति यत्तेरिष्टम् यत्तेरिजुतमस्तिरेष्टम् आत्मनि धाता तद्भद्रया पुनस्तन्दधत्परोषापरोः सन्ते वज्रा वज्ञा भवतु समूते परोषापरोः सन्ते मांसस्य विश्वस्तम् समश्च विरोहतु वज्रा वज्ञा सन्धीयाम् चर्मणा चर्मरोहतु अशुक्ते अस्थिरोहतु मांसम् मांसेन रोहतु लोभराम् नासङ्कल्पयात्मजा सङ्कल्पयात्मजम् अशुक्ते अस्थिरोहतु छिन्नम् सन्धेः योषधे समुत्तिष्ठप्रेहि प्रद्रवरदस्सु चक्रस्सु अपरिसुनाभिः प्रतिष्ठोर्ध्वः यदि त्वम् पतित्वा संश्रे दिवाश्वा प्रकृतो जघान ऋभुवसेवाङ्गारिषापरुः उदरे वावहितम् देवा पुन्न यथा पुनः पुरारश्चकृशम् देवा देवाः जीव यथा पुनः द्वाभिणौ वादौ वादाजन्धोरावरावदाः दक्षन्ते अन्यः वादव्यान्यो वादु यद्रवाः आवादवाहिरेषयम् यादवाहियद्रवाः त्वम् हि विश्वभेषदेवानाम् दूतैयासे त्रायन्तामिमम् देवास्त्रायन्ताम् मरुताम् गणाः त्रायन्ताम् विश्वा भूतानि यथायमासत् आत्रागमम् सन्तादिभिरथोरिष्टतादिभिः रक्षन्त उग्रमाभारिषम् जरायक्ष्मम् स्वामिने अयम् मे हस्तो भगवानयम् मे भगवत्रः अयम् मे विश्वभेषयोऽयम् शिवाभिमर्शनः हस्ताभ्याम् दशाभ्याम् जिह्वा वाजः पूरोगली अनामयितृभ्याम् हस्ताभ्याम् ताभ्याम् ताभिमृशावसि अजोर्याज्ञेन च निष्ठसोघात् स्वामश्चे तेन देवा देवतामग्रयायन्ते नरोहान् दुर्मेऽध्यासः क्रमध्वमग्निनाकमुख्याम् हस्ते सुबिभ्रतः दिवःस्पृष्टम् स्वर्गत्रा विश्राजेभिराध्वम् पृष्ठा पृथिव्याहमन्तरिक्षमारोहमन्तरिक्षाद्दिवमारोहम् दिवो नागस्त पृष्ठात् स्वा आर्जोतिरगामहम् स्वार्यन्तो नापेक्षन्ताद्याम् रोहम् तिरोदधि यज्ञये विश्वतोधारम् सुविद्वांसो विदेशिरे अग्ने प्रेहि प्रथमो देवतानाम् चक्षुर्देवानामुतमानोषाणाम् यक्षमाणा भृगोभिस्तजोषा स्पर्यम् दुजमाना स्वस्ति अजमानद्वीपयराधितेन दिव्यम् सुवर्णम् वयसम् बृहन्तम् तेन येष्म सुकृतस्य लोकम् स्वरारोहन्तो अभिलाकमुत्तमम् पञ्चोदरम् पञ्चभिरङ्गुलेभिर्दव्योद्धर पञ्चदैवोदरम् प्राच्याम् दिशिरोयस्य देहि दक्षिणायाम् दिशि दक्षिणम् देहि पात्रम् प्रतीच्याम् दिशि भवतमस्य देहिरस्याम् दिश्युत्तरम् देहि पात्रम् ऊर्ध्वायाम् दिश्यादस्यानोकम् देहि दिशि ध्रुवायाम् देहि वाजस्य मन्तरिक्षे मध्यमस्य श्रितमजम् श्रितया प्रोर्णो हि त्वदा सर्वैरङ्गे संहृतम् विश्वरूपम् स उत्तिष्ठेतो अभिनागमत्रमम् पद्भिश्चतुर्भिः प्रतितिष्ठ दिक्षु समत्परतन्तु प्रतिशोनभस्वते समप्राणी वादयजूतायन्तु बहर्षभस्य नरतो नभस्वतो भाश्रावपृथिवीम् तर्पयन्तु समीक्षयन्तु सुधाभोपाङ्गसामोषदेशन्ता वर्षस्य सर्गाः वयन्तु भूमिम् पृथग्जायन्ता मोषधयो विश्वतरूपाः समीक्षयस्वगाय गौरवांस्याम् वेदापृथग्वीरन्ताम् वर्षस्य सर्गाः वहयन्तु भूमिम् पृथग्जायन्ताम् मेरुधो विश्वरूपाः गणास्तोपगायन्तु मारुताः पर्जन्यघोषिणः पृथग् सर्गाः वर्षस्य वर्षतो वर्षन्तु पृथिवीम् उदीरयतमरुतः समुद्रतस्तदेशो अर्को न भवत्वादयाथ महर्षभस्य पृथिवीम् तर्पयन्तु अभिक्रन्द्रस्तनयार्तयो हरिम्भूमिम् पर्जन्यपजसा समन्धि त्वया सृष्टम् बहुरमयितु वर्षमाचारैः कृशगुरे स्वस्तम् सम्भोवन्तु सुदान उत्साहजगराभुता मरुद्भ्य प्रच्युता मेघा वर्षन्तु पृथिवीम् आशामाशाम् विद्योदताम् वातावान्तु दिशोदीशः मरुद्भ्य प्रच्युता मेघा संयन्तु पृथिवीम् आपो विद्युदभ्रम् वर्षम् संवोवन्तु हृदान उत्साहजगराभुता मरुद्भ्य प्रच्युता मेधा प्रावन्तु पृथिवीम् अपामग्निस्तनुभिः संविधानो जोषधीनामधिमा बभूव स नो वर्षम् मरुदानम् जातवेदः प्राणमृजाभ्यो अमृतम् दिवस्परि प्रजापतिस्तयादादमुद्रादापरीरयन्मृतधिमर्दयाति प्रप्यायताम् वृष्णो अश्वस्य वेदोर्वाङ्गेतेन स्तनहितृणैः अवोने शिञ्चन् वसूरः पिता नश्वसम् त्वगर्गरापाम् वरुणावनीचिः अवस्त्रेज पदम् दुर्जीवाहवो मण्डूकारिणा संवत्सरम् शशयाना ब्राह्मणा व्रतचारिणः पातम् पर्जन्यजिङ्गिताम् प्रमण्डूकाः उपप्रवादमण्डूकिवर्षमावदतादुरे मध्ये रथस्य नवस्य विगृह्य चतुरः पदः खण्वका इमध्ये चतुरे वर्षम् वरुद्धम् विदरो मरुताम् मन इच्छत महान्तम् कोशादशाभिनिञ्जनविद्युदम्बुवातः बहुधा विदृष्टा भवन्तु ब्रह्मेषामधिष्ठातान्तिकामेव पश्यति यस्तायम् मन्यदेतम् देवा इदम् वेदो यस्तिष्ठति चरधियश्च मन्यधियोधिकायम् चरधियप्रतङ्गम् दोषम् निषद्यम् मन्त्रयेते राजा तद्वेदवरुणस्तृतीयाः उदेयम् भूतिर्वरुणस्य उदासौद्योर्बृहति दूरेयम् उदोष भद्रौ वरुणस्य कक्षी उदासिन्मद्व उदयेनः उदयोद्यामजसर्पास्तान्न समुच्यादे वरुणस्य राज्ञाः दिवस्पज प्रचरन्तीदमस्य सहस्राक्षादे पश्यन्ति भूमिम् सर्वम् तद्राजा वरुणो विचष्टेदम् तरारोदयत्परस्ताः सङ्ख्यातास्य निमिषो जनाः नामक्षादेवीनोदितानि ये ते पाशाः वरुण सप्त सप्तम् देहादिष्टम् छिनन्तु सर्वे अनृतम् मदम् तञ्यस्रत्यभाग्यजितम् सृजन्तु शतेन पाशैः अभिधेः वरुणैरम् मादे भोच्यनृतमान् दक्षः आस्ताम् जाल्म उदरम् शृङ्गयित्वा दोष इव बन्धः परिवृत्यमानः यस्य माम्यो वरुणो यो व्याम्यो यस्तम् देश्यो वरुणो यो विदेश्य यो देव वरुणो षष्टमानुषः तैष्ट्वा सर्वैरविष्यामि पाशैरसावामुष्यायामुष्याः पुत्रा तानो ते सर्वा ननु सन्देहामि ईशानान्तभेदानामुच्चारभामहे चक्रे सहस्रवीर्यम् सर्वस्मावोषधे त्वा सत्यजितम् शवधराणीम् सहमानाम् गुणस्तः सर्वास्तमग्नौषधीनापारयादिति व्यासचापशमानेन याघम् मूरमादधे व्यासस्य हरणाय जातमाहारेभे त्वगमत्कृता यान्ते चक्रामे पात्रे यान् चक्रुर्नीलमभिले आमे मांसे कृत्यायान् चक्रुस्तया कृत्यागतो हि दौष्वप्नम् दौर्येत्यम् रक्षो अम्बमराय्याः दुर्णाम्ये सर्वाः दुर्वाजस्ता अस्मन्नामदे क्षुधामारम् तृष्णामारमोदामनपद्यतामार्गत्वया वयम् सर्वम् तदवृद्महे तृष्णामारम् क्षुधामारमथोक्षवरायणम् अपामार्गत्वया वयम् सर्वम् तदपवृद्महे अपामार्गवोषधीनाम् सर्वाः सामे कैध्वसि तेन ते मृज्ञास्ति समधक्रमगतश्च समञ्जो यस्सो येनात्रिः समावदि कृणोमि सत्यमोदरे रथास्तम् नृत्वरीः यो देवा कृत्याम् कृत्वा हरादमे दृढो गृहम् वत्सो धारुरेव मातरम् तम् प्रत्यमुपपद्यताम् अमाकृत्वा आत्मानयस्ते नान्यम् जिघांसति अश्वानस्तस्याम् दग्धायाम् बहुराः पट्करिकृति सहस्रधामन्विशेखान् विग्रीवाञ्छायात्तम् परिस्मचक्रुषेः कृत्याम् प्रियाम् प्रियावदेह अनयहमोषध्या सर्वाः कृत्याः दूरम् याम् क्षेत्रेः चक्रुर्याम् गोषाम् वाहते पुरुषेषु यश्चकारकर्तुम् शस्रे पादमङ्गुलिम् चकाय भद्रमस्मभ्यमात्मने तव नन्तु सः अवामार्गोपरमाश्रुक्षेत्रियम् शपथश्च यः अपाहयादुधानीय सर्वाहारह्याः अपमृज्ययादुधानव सर्वाहारह्याः अवाहारत्वया वयम् सर्वम् तदपमृज्महे उतो अस्य बन्धोदोहृदय उतोदृत्यागतः प्रजाकरणिवासिन्धिवारणीकम् ब्राह्मणेन पर्युक्तादिखण्डेन शेषेव दिन तत्र भयमस्ति यत्र प्राप्नोष्योषधे अग्रगेष्योषधीनाम् ज्योतिषेवाभिधीपयन् उदत्रातासिपाकस्याथो हन्तासि रक्षताः यदो देवासूराम् स्वयाग्रे निरकुर्वता तदस्तमद्योषेवमार्गोऽजायथाः विभिन्नदेशसारान्नाम ते पिता प्रत्यग्विभिन्धित्तम् तयो अस्माभिलासयति असद्भौम्या समवर्तद्यावेदिमार्जनाः तद्वैततो विरूपाय प्रत्यक्कर्त्राय वृषभो प्रत्यङ्घिरम् बभोविधप्रतीतेन परस्त्वम् सर्वान्मधामधिवरीयो यावयावधम् शतेन मापरीपाहि सहस्रेणाभिरक्षा इन्द्रस्ते वेदधाम्बत उग्रवोज्ज्वालमादधत् आपश्यति प्रतिपश्यति वरापश्यति पश्यति दिवमन्तरिक्षमाद्भूमिम् सर्वम् तद्ये विपश्यति तिस्रो दिवस्तिस्रः पृथिवीश्वरे प्रजाहम् सर्वाः भूता दिवश्चाः निदेव्योषधे दिव्यस्य सुपर्णस्य हर्षगीका सा भूमिमारुरोहितभय्याम् तावदूरेव ताम् मे सहस्राक्षो देवो दक्षिणहस्तादधत् प्रजाहम् सर्वम् पश्यामि यश्च शूद्र उदार्याः आविष्क्रेण स्वरूपाणि मात्मानपरगूहाः अथो सहस्रदक्षोत्तम् प्रदेवस्याः किमेदिनाः दर्शय मायासुधानाम् दर्शय यासुधान्याः विशाचान् सर्वान् दर्शये चत्वारभवोषधे कश्यपस्य चक्षुरधिशून्याश्च लक्ष्याः वीद्रे सूर्यमिवरत्नम् तम् मापि शाचम् तिरस्कारः उदग्रहम् परिपाणाद्यादुधानम् किमेदिनम् तेनाहम् सर्वम् पश्यामुतशोग्रमुदार्यम् यो अन्तरिक्षेण पचदिदिवम् यश्चादिसर्वादि भूमियो मन्यतेनाथम् तम् पीशाचम् प्रदर्शय आगावो अग्मन्नुत भद्रमक्रम् सीदन्तु गोष्ठेरयम् तस्मै प्रजावतेः पुरुरूपारिह स्थिरिङ्गाय पूर्वीणतो दुहानाः इन्द्रो यज्वरे गृणते चक्षदवेद्वरादिनः सम्मूढायते भूयो भूयोरयमिदश्च वर्धयम् अभिन्ने किल्येन दधाजिते वयम् राजशन्ति नतभाजितस्करो नासाः मा मित्रो यजिराजधर्षति देवांश्च याभिर्यज ते ददाति जयो मित्राभिस्सृजते गोपातिः सह नता अर्वाणोऽश्नुतेन संसृतत्रमुपायन्ति यदा अभि उरुगायमभायन्तस्य दानुगावो मर्दस्य विचरन्ति यद्वनः गावो भगो गाव इन्द्रो गावस्तोमस्य प्रथमस्य भक्षः इमाया गावस्तज नास इन्द्र इच्छामि हृदानसाचिदिन्द्रम् यूयम् गावो मेदयथा गच्छन्ति रश्मीरम् च कृणुधा सुप्रतीकम् भद्रम् गृहम् कृणुत भद्रवाजो बृहद्वो वय उच्यते सभासु प्रजावदे सोजवसे रुषन्ते श्रद्धापस्तु प्रपाणे वन्ते मावस्तेनैशतमागम् सर्परेव रुद्रस्य हेतृणक्तो इममिन्द्रवर्धय क्षत्रियम् इमम् विशामेकवृषम् कृणत्वाम् निरयमित्रानक्षणस्य एवम् भज ग्रामे अश्वेषु गोषुनिष्टम् भजो अमित्रो अस्य परस्मक्षत्राणामयमस्तु राजेन्द्रशत्रुम् रन्धय सर्वमस्मै अयमस्तु वदनामयम् विशाम् विश्वतीरस्तु राज अस्मिन्निन्द्रेश्च अस्मैर्यापृथिवे भोरे भावम् गोहाताम् धर्मदुहे विभेदो अयम् राजा प्रियन्द्रस्य भूयात्रियोगवामोषधीनाम् पशूनाम् विरज्मेत उत्तरालम् तमिन्द्रयेन जयम् राजयन्ते यस्त्वाकरलेकभृषञ्जनानामुदराज्ञामुत्तमम्मानवानाम् उत्तरस्तमधारेते समत्नायेकेत राजन्मृतीरत्रमस्ते एकर्षमिन्दसकारयैवाम् शत्रु यदा भोजनानि सिंहप्रतीको विशोऽद्धि सर्वाद्याघ्रप्रतीको वाधस्वशत्रून् एकर्षमिन्दसकारयैवाम् शत्रु यदा माघेरा भोजनानि अग्नेर्मन्दे प्रथमस्य प्रचेतसः प्राञ्जजन्यस्य बहुधाय विन्धते विशो विषप्रविशाम् समीव हे समामम् च त्वम् भरतः यथा हव्यम् महदिजातवेदो यथा यज्ञम् कल्पयति प्रजानन् एवा देवेभ्यः सुमरिन्नावहतनामम् च त्वम् भरतः यामन्यामन्नुपयुक्तम् महिष्टम् कर्मम् कर्मन्नाभरम् अग्निमीरे रक्षोहणम् यज्ञम् घृताभूतम् सनोमम् चत्तम् हरतः सुजाकम् जातवेरम् नैश्वागरम् विभम् अव्यवाहम् हवामहे सनोमम् चत्तम् हरतः येन हृषयो परमद्योदयम् जालेनादो राणामयोमन्त्रमाया येनाग्निना पणीन्द्रो जिगायनोऽहम् चत्वम् भरतः येन देवा अमृतमन्दमिन्दन्येनौषधेर्मधुमदेरगन्वन् येन देवा स्वाभरम् समुञ्चत्वम् भरतः यस्येदम् प्रतिशियद्विरोचते यज्जातम् जरिभव्यम् च एनम् स्तोम यग्निन्नाधिरोधरोहमेविधरोमुञ्चत्तम् हासः इन्द्रस्य मन्महेशस्वजस्य मन्महेरुत्रग्नस्तोमा उपमे मागुः योधाशुजः सुकृतोहमेधिरोमुञ्चत्तम् हासः यमुग्रीणामुग्रबाहुर्योधानवानाम् बलमारुरोज येन निदासिन्धो येन कावस्त्राहोमुञ्चत्वम् हरः यश्चर्षणिको विषः सर्वेभ्यस्मै ग्रहाः प्रवदन्ति ब्रह्मम् यस्याधस्वत्रो नामदिष्टस्तनोमुञ्चत्वम् हरः यस्य वशासर्षभाजवृक्षणो यस्मै नीयन्ते स्वरवस्वर्विदे यस्मै शुक्रपवदे ब्रह्मजुम्भिरस्तनोमुञ्चत्वम् हरः यस्य जुष्टिम् स्वामिनः कामयम् देयम् भवन्ते विशोमन्तम् गमिष्टौ यस्मिन् नर्कश्य श्रिये यस्मिन्नो यस्वनोमुञ्चत्वम् हरः यः प्रथमः कर्म कृत्यायज्ञेयस्य वीर्यम् देवस्यानुबुद्धम् येनोद्यतो वज्राभ्यायता हिंसनोमुञ्चत्वम् हरः यः सङ्ग्रामान्वयुधे वशेयः पुष्टानि संयति सोमेन्द्रम् नाधितोजो भवे विषनोमुञ्चत्वम् भरः वायोस्रपितुर्विदधानि मन्महेयावात्मन्वद्विषभोजरक्षथ यो विश्वस्य परिभो बभूवदुस्तवनोमुञ्चदयम् भरः ख्यातावै मापार्थीवार्याभ्याम् नृजोयुमिदमन्तरिक्षे ययोः प्रायम् नान्महानशे कश्चन तौरोमुञ्चदयमम् भरः तवो नरेशन्देनास्त्वय्योगे प्रेरते चित्रभानो युवम् नारोदपिता च भुवनाय रक्षसस्तौरोमुञ्चदयमम् भरः अपेतो वाजोसमिता च दुष्कृतमपरक्षाम् सेनमेताम् च सेधतम् साम् ह्योर्जजाः सम्बले रौनोमुञ्चदयमम् भरः वयम् मे पोषम् सवितोदवायुस्तनूदक्षमाम् सुसेवम् अयक्ष्मदादिम् महाइह दत्तम् तौनोमुञ्चदयमम् भरः प्रसोमतिम् सवितर्वाय भूतरे महस्वन्तम् मत्सरम् महादगाथस्य प्रवतो नियच्छतम् तौनोमुञ्चदयमम् भरः उपश्रेष्ठाशिरो देवजोर्धामन्नस्थिरन् स्वामी देवम् सवितारम् च वायुम् तौनोमुञ्चदयमम् भरः मन्देवाम् जावा पृथिवी सुभोजसौसजे ेतामीता भोजनानि प्रतिष्ठे क्यभवतम्बसोराम् तेनोमुञ्चदयमम् भरः प्रतिष्ठे क्यभवतम्बसोराम् प्रवृद्धे देवे भगे उरोचे पृथिवी भवतम् मे स्योने तेनोमुञ्चदयमम् भरः अदन्तापे सुतपसो हे पुर्वीकम् धीरे कविभिन्नमस्ये भवतम् मे स्योने तेनोमुञ्चदयमम् भरः ये अमृतम् निभृतो ये हवीम् शिये स्रोत्याभिभृतो पृथिवी भवतम् मे स्योने तेनोमुञ्चदयमम् भरः यमुष्यभृतो ये वनस्पते निजोर्वाम् विश्वभुवनान्यन्तः पृथिवी भवतम् मे स्योने तेनोमुञ्चदयमम् भरः एकेनायेन परथोजे कृतेनाभ्यामृतेन किञ्चन शक्नुवन्ति द्यावापृथिवे भवतम् मे स्योनेनोमुञ्चदयमम् भरः यन्मेणमभिशोचनिजेन येन वा कृतम् पौरुषेणान्न दैवात् स्तोमिद्यावापृथिवेनाधियोजो भवेमितेनोमुञ्चदयमम् भरः मरुताम् मन्ये अधीमे ब्रुवन्तु प्रेमाजम् वाच सा ते अवन्तु आशोरेव सुजमानष्पभूतलेनोमुञ्चन्तम् भरः उत्साहक्षेतम् निजम् निजे ददाया सिञ्चन्ति रथयो पुरोदधे मरुतः कृष्णे मार्गेनोमुञ्चन्तम् भरः पयोधेनो शग्मा भवन्तु मरुतो नश्चोरस्तेनोमुञ्चन्तम् भरः
अवस्त मुद्राद्यवद्वहन्ति दिवस्त्रिधिवीमभिनेत चलन्ति ये अग्नेशामरुतश्चरन्ति धेनोः मुञ्चन्तम् हरसः ये कीलालेन तर्पयन्ति ये घृतेन ये वावयोरेतरसा संवृजन्ति ये अग्नेशामरुतो वर्षयन्ति धेनोः मुञ्चन्तम् हरसः यदि जनम् मारुतो मारुतेन यदि ते भादेव्ये नेदृगाः ैकम् विहितम् दः सन्मारुतम् दर्भृतना सोग्रम् स्तौमे मरुतोः नाधिको जोहेनो मुञ्चन्तम् भरतः भवाः सर्वो मन्द्रे वाम् तस्य वित्तम् निरोर्वामिदम् प्रतिशयतिरोचते यास्येषाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चकर्मम् भरसः ययोः अभ्यग्नमुदयद्दूरे चेद्यावृतावधिष्ठौ यावस्येषाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चकर्मम् भरसः सहस्राक्षो वृत्रहणाहुवेहम् दूरे गम्योदे ेषु यावस्येषाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमम् भरतः यजोर्मधान्नापपद्यदेकश्चानान्तदेवेषूतमानोषेषु यावस्येषाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमम् भरतः यः कृत्या कर्मो न कृत्या सुधानो यतस्मिन् धत्ताम् वज्रमुग्रौ यावस्येषाधे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमम् भरतः अधीनो ब्रूतम् मृतनासो ग्रौ संवज्रेण सजयकीरे स्तौमि भवान् सर्वो नाधितो यो हैमितौ नो मुञ्चतमम् भरतः मन्वे वारम् मित्रावरुणावृता प्रसौसरे सत्यावानौ गच्छतो नृचक्षसौ मुञ्चतमम् भरतः यावङ्गीरसमवथो यावकस्तिम् मित्रावरुणा जमदग्निमत्रिम् यो कश्यपमरथो यौ वसिष्ठम् यौ नो मुञ्चतमम् भरतः यौ यावाश्वमवथो मध्यश्वम् मित्रावरुणा पुरुमेधमत्रिम् यौ मे मतमवरथ सप्तमध्यन्तौ नो मुञ्चतमम् भरतः यौ भरद्वाजमवरथो यौ गरिष्ठैरम् विश्वामित्रम् वरुणमित्रकुत्सम् यौ कक्षीवन्तमवरथ प्रोदगन्वन्तौ नो मुञ्चतमम् भरतः यौ मेधादिमवरथो यौ त्रिशोकम् मित्रा वरुणा कुशलाहम् काव्ययौ यौ गोदमवरथ प्रोदमुन्द्रन्तौ नो मुञ्चतमम् भरतः यजोरथः सत्यवत्मर्जुनस्मिर्मिथुनावरम् तमभिजाते दूषयम् स्तोमी मित्रावरुणोऽधितो यो हविमिथौ नो मुञ्चतमम् भरतः अहम् रुद्रेभिर्वसोभिश्चराम्यहमादित्ये रुत विश्वदेवैः अहम् मित्रावरुणो भाभीरन्हमिन्द्राग्नेहमश्विनो भा अहम् राष्ट्रीः सङ्गमानि वसूनाम् चिकितुषीर्प्रथमाज्ञानाम् ताम् मा देवाव्यलुः पुरुत्रा भूरिः सात्राम् भूर्या वेदन्तः अहमेव स्वयमिदम् वदामि जुष्टम् देवानामुदमानुषाणाम् यम् कामदेतम् तमुग्रम् कृणोमिदम् ब्रह्माणम् तमिषन्तम् सुमेधाम् मया सोन्नमत्ययो विपश्यति यः प्राणदयेन् शृणात्युक्तम् अमन्तवोमान्त उपक्षियन्ति श्रुधिशोदश्रद्धेयम् ते वदामि अहम् रुद्रायधनुरातनोमि ब्रह्मद्यशेषरेहम् तमाहु अहम् जनाय समदम् गृणोम्यहम् यावेवेषाम् अहम् सोमवाहनसं विभर्म्यहम् तुष्टारमुतभूषणम् भरम् अन्दधामिद्रवीणाहविष्णुरते सुप्राव्याः अहम् सो वे पिड ఆంతస్య మూర్ధన్మ మజోనీరత్వాంతస్య ముద్రే తతో వితిష్ఠే భువనాని విశ్వతామూన్యాం అశ్వనోపస్పృశామి అహమేవ వాతరివ ప్రవాహ్యాభువనాని విశ్వాః పరో దివా పరేణ పృథివ్యై దావదేమహిం నాథం వరభూవ తదాహమన్యో సరథమారుజంతో హర్షయమాణాహితాసోమరుత్వన్ దిగ్మేష భాయుధ సంశిరా ఉపప్రయం దులరో అగ్నిరూపా అగ్నిరేవ మన్యో ద్విషదస్తహస్తేనాయేర్ధస్తే హోదరే హత్వా యశత్రోన్యభజస్తే నవో నో విమానో విమృధోదస్త సహస్రమన్యో అభిమాదివస్మై జన్మణం బ్రహ్మణం ప్రేహి శత్రో ఉగ్రం తే బాజోరుద్రే వశీషయాశారేతో బహో నామాసి మన్యేషం విసంయుద్ధాయ సంశేషాధి అగత్తరుక్తయం జుమంతం ఘోషం విజయాయ గణమసి విజయణిం దానవ్రవో అస్మాకం మన్యాధిపా భవేహ ప్రియంతే నామ సగురే గణేవసి విద్మాతముత్సంయత ఆబూధ ఆభూత్యా సహజ వజ్రాయ గణోర్షభూత ఉత్తరం రత్వామన్యోహమేద్యే మహాధనస్య పురోహూత సంతృతి సంసృష్టం ధనముభయం సమాగతమస్మభ్యం దత్తాం వరుణశ్చ మన్యః వియోధానాగతేషు సత్ర పరాజితాసో అపనిలాజంతా యస్తే మన్యో వీరగ్రగ్రసాయక సహవోజ పుష్యతి విశ్వమానుషయ సాహ్యావదా సమాప్యం దయాయుజా వయం సహస్కృతేన సహ దాతహస్తదా మన్యురింద్రో మన్యురేవాస దేవో మన్యురుహోదా వరుణో జాతవేదా మన్యుర్విషరీరదేవానో ధీర్యా పాహినో మన్యో తపదాతజోషా అమిత్రృత్రాజస్ విశ్వాసోన్యాభరాత్మన్నాభిమోర్భామోభివాది విశ్వదర్శని సహోయస్మాదనాధే అపరేతోషేత క్రంద్వామన్యోర్జీయాహంపరే అయం దే అశ్ముపరే గర్వాన్ ప్రదేశేన సురే విశ్వదావన్ మన్యో వజ్రన్మహిళావత్సహనావదస్యోమృతబోధ్యాపే అభిప్రేహి దక్షిణోహమానోధా వృత్రాణి లంఘనాభూరి జుహోమీరే ధరుణం మధ్వోగ్రమహావోపాంశ ప్రథమాపి
అపనశ్రోషు చదగమగ్నేయం అపనశ్రోషు చదగం సుక్షేత్రియాసురాధుయావసురాచరిమే అపనశ్రోషు చదగం ప్రయద్బందిష్టయేషామ్రాస్మాకాశ్చ సూరయా అపనశ్రోషు చదగం ప్రయత్తే అగ్నే సూరయో జాయేమహి ప్రదే వయమ్ అపనశ్రోషు చదగం ప్రయదగ్నే సహస్రతో విశ్వతోయం దేభానవాః అపనశ్రోషు చదగం త్వం హి విశ్వతో విశ్వతః పరిభూరసి అపనశ్రోషు చదగం దిశో విశ్వతో ముఖాదీనామేవ పారయ అపనశ్రోషు చదగం సింధోమివ నావాది పరిషా స్వస్తయే అపనశ్రోషు చదగం బ్రహ్మాస్య శీర్షం బృహదస్య పృష్టం వామదేవ్యముదరమోదరస్య ఛందాంసి భక్షౌముఖమస్య సత్యం విష్టారీయాస్తపరోధియజ్ఞ అనష్టాపూరా పవనేన శుద్ధాశ్రుచరశ్రుచిమీయంతి లోకం నైషాం శిష్టం ప్రదహరి రాతవేద స్వర్గే లోకే బహుస్త్రైణమేషాం విష్టారిణ మోదనయ్యే పచం దిలైనావర్తి సజతే కరాజన ఆస్తే యోపరాదిదేవాం సంగం ధర్మయే మాదతే సౌమ్యేభిః
विष्टारिण मोधनये वजन्तिनैरान्यवः परिमृष्णातिरेताः रथीः भूत्वा रथजानैरे पक्षीः भूत्वा दिवस्तमेः एषयज्ञानाम् वितरतो महिष्टो विष्टारिणम् भक्तादिममावेश आङ्गीकम् कुमोदम् सन्तनोतिविषम् शालोकम् शफकोमुदाने एतास्त्वाधारा उपरन्तु सर्वाः स्वर्गे लोके मधुमत्पिण्डमाना उपत्वा तिष्ठन्तु पुष्करिणे समन्ताः घृतर्गदा मधुगोलाः सरोदगा क्षीरेण पूर्णा उदकेन दग्धा एतास्त्वाधारा उपरन्तु सर्वाः स्वर्गे लोके मधुमत्पिण्डमाना उपत्वा तिष्ठन्तु पुष्करिणे समन्ताः चतुरः कुम्भाश्चतुर्दधामि क्षीरेण पूर्णामुदकेन दग्धा एतास्त्वाधारा उपयन्तु सर्वाः स्वर्गे लोके मधुमत्पिम्बमाना उपत्वा तिष्ठन्तु पुष्करिणे समन्ताः ब्राह्मणेषु विष्टारिणम् लोकजितम् स्वर्गम् समेवाक्षेश्च स्वधया पिम्बमानो विश्वरूपाधेरुक्काः मधुघाने अस्तु यमोदनम् प्रथमजारितस्य प्रजापतिस्तपदा ब्रह्मणे भजत यो लोकानाम् विधृतिर्नाभिरेषात्तेनोदनेनातीतराणि मृत्यम् येनादरम् भोजतो मृत्युम् यमन्नविन्दम् तपसाश्रमेण यम् भवाच ब्रह्मणे ब्रह्मपूर्वम् तेनोदनेनातीतराणि मृत्यम् यो दाधार पृथिवीम् विष्णुभोजयन्तरिक्षमापृणाद्दधेन यो हस्तभ्राद्दिवमोर्ध्वमहिम्नातेनोदरेणातीतराणि मृत्युम् यस्मान्माधारमिदास्त्रिंशदरास्त्रम्वत्सरोन्निर्मितो द्वादशाः अहोरात्रायम् पर्यन्तो नापुस्तेनोदरेणातीतराणि मृत्युम् यप्राणरप्राणवान्भूयस्मै लोकादवन्तक्षरन्ति ज्योतिष्पदे प्रतिशोयस्य सर्वास्तेनोदरेणातीतराणि मृत्युम् यस्मात्त्वक्वादमृतम् सम्बभूवयोगायत्र्याधिपतिर्बभूव यस्मिन् वेदानिहीता विश्वरूपास्तेनोदरेणातीतराणि मृत्युम् अवबाधे शिरन्दम् देवबीजम् सपत्नाये मे पदे भवन्तु ब्रह्मोदनम् विश्वजितम् वदामि शृण्वन्तो मे शत्रधानस्य देवाः ताम् सत्यौ या पदहत्वैश्वानरो विधाः यो नो दुरस्याद्यत्साच्याधो यो नो आराधयात् यो नो दिप्सदिप्सदो दिप्सदो यश्च दिप्सदि वैश्वानस्यैरपि दधामिदम् यागरे मृगयन्ते प्रतिक्रोशे मा भास्ये द्रव्यादो अन्याञ्जित्रसर्वांस्तान् सहसादहे सहे विजायान् सहसैषाम् द्रवीणम् व्रजे सर्वान् दुरस्य दोहन्मिधर्मागोतिर्विध्याम् ये देवास्ते नहासन्ते सूर्येण मते जलम् नदेषु पर्वदेशे सन्तैः पशुभिर्विदे तपनो अस्ति पिशाचानाम् व्याघ्रो गोमतामिव स्वानसिंहमेव दृष्ट्वा तेनविन्दम् देव्यम् चरम् अपीशाचैः संशक्नो विनस्तेनैर्नवनग्भिः पिशाचास्तस्मान् नश्यन्ति यमहम् ग्रामवामिषे यम् ग्रामवामिषद इदमुक्तम् सोम पिशाचास्तस्मान् नश्यन्ति न पापमुपजानते ये वा क्रोधयन्ति अपिताहस्तिरम् मशका इव तानहम् मन्ये दुर्हीताञ्जने अल्पशलोनि वा अभिधम् निर्वजर्धतामश्वमिवाश्वाभिधान्याः मल्लो यो वृद्धे सौभाषान्नमुच्यते।